श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ एकोनविंशोऽध्यायः श्रीभगवानुवाच यो विद्याश्रुतसम्पन्न आत्मवान्नानुमानिकः मायामात्रमिदैज्ञात्वा ज्ञानै च मयि सन्न्यसे स्वार्थो हेतुश्च सम्मतः स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ज्ञानविज्ञानसंसिद्धाः पदम् श्रेष्ठौ विदुर्मम ज्ञानी प्रियतमोतो मे ज्ञानिनासौ बिभर्ति माम् तपस्तीर्थै जपो दानम् पवित्राणि तराणि च नालं कुर्वन्ति तां सिद्धिया ज्ञानकलया कृता तस्माज्ज्ञानेन सहितै ज्ञात्वा स्वात्मानमुद्धव ज्ञानविज्ञानसंपन्नो भज मां भक्तिभावितः ज्ञानविज्ञानयज्ञेन मामिष्ट्वात्मानमात्मनि सर्वयज्ञपतिं मां वै संसिद्धिं मुनयो त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो मायान्तरा पतति नाद्यपवर्गयोर्यत् जन्मादयोऽस्य यदमी तव यस्य किं स्यो राद्यन्तयो यदसतोऽस्ति तदेव मध्ये उद्धव उवाच ज्ञानौ विशुद्धौ विपुलै यथैतत् वैराग्यविज्ञानयुतं पुराणम् आख्याहि विश्वेश्वर त्वद्भक्तियोगै च महद् विमृग्यम् तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश पश्यामि नान्यत् चरणन्तमाङ्घ्रिद् द्वन्द्वातपत्रादमृताभिवर्षात् दष्टै जनं सम्पतितं बिलेऽस्मिन् कालाहिना क्षुद्रसुखोरुतर्षम् समुद्धरैनं कृपयापवर्ग्यैर् वचोभिरासे च इत्थमेतत्पुरा राजा भीष्मं धर्मभृतावरम् अजातशत्रुः पप्रच्छ सर्वेषानोऽनुशृण्वताम् निवृत्ते भारते युद्धे सुरुन् निधनविह्वलः श्रुत्वा धर्मान् बहून् पश्चान् मोक्षधर्मानपृच्छत तानहन्तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान् ज्ञानवैराग्यविज्ञानश्रद्धाभक्त्युपगृह्णितान् न वैकादश पञ्चत्रीन् भावान् भूतेषु येन वै ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् एतदेव हि विज्ञानं न तथैकेन येन यत् स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् आदावन्ते च मध्ये च सृज्यात् सृज्यै यदन्वियात् पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् श्रुतिः प्रत्यक्षमैति ह्यमनुमानै चतुष्टयम् प्रमाणेष्वनवस्थानात् विकल्पात् स विरज्यते कर्मणां परिणामित्वादाविरीचादमङ्गलम् विपश्चिन्नश्वरं पश्येदृष्टमपि दृष्टवत् भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेन पुनश्च कथयिष्यामि मद्भक्तेः कारणं परम् श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम् परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणीरणम् मय्यर्पणै च मनसः सर्वकामविवर्जनम् मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च इष्टं दत्तं हुतै जप्तं मदर्थै यद्व्रतं तपः एवं धर्मैर्मनुष्याणां मुद्धवात्मनिवेदिनां मयि सञ्जायते भक्तिक् कोऽन्योऽर्थोऽस्यावशिष्यते यदात्मन्यर्पितै चित्तं शान्तं सत्त्वोपबृंहितं धर्मै ज्ञानं सवैराग्यमैश्वरै चाभिपद्यते यदर्पितं तद्विकल्पे इन्द्रियैः परिधावति रजस्वलै च सन्निष्ठै चित्तौ विद्धि विपर्ययम् धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानै चैकात्म्यदर्शनम् गुणेष्वसङ्गो वैराग्यमैश्वरै चाणिमादयः उद्धव उवाच यमः कतिविधः प्रोक्तो नियमो वारिकर्षण कशमः कोदमः कृष्ण कातितिक्षाधृतिः प्रभो किन्दानं किं तपःशौर्यं किं सत्यमृतमुच्यते कस्यागः किं धनैचेष्टं को यज्ञः का च दक्षिणा पुंसत् किं स्विद्बलं श्रीमन् भवो लाभश्च केशव का विद्या रीः परा का श्रीः किं सुखं दुःखमेव च कः पण्डितः कश्च मूर्खः कः पन्था उत्पथश्च कः कस्वर्गो नरकः कस्वित् को बन्धुरुत किं गृहम् काढ्यत् को दरिद्रो वा कृपणत् कः क ईश्वरः एतान् प्रश्नान् मम ब्रूहि विपरीतांश्च सत्पते श्रीभगवानुवाच अहिंसा सत्यमस्तेयमसङ्गोरीरसञ्चयः आस्तिक्यं ब्रह्मचर्यै च मौनं स्थैर्यं क्षमाभयम् शौचै जपस्तपो होमश्रद्धातिथ्यं मदर्चनं तीर्थाटनं परार्थे तुष्टिराचार्यसेवनम् एते यमासनियमा उभयोर्द्वादश स्मृताः पुंसामुपासितास्तात यथा कामं दुहन्ति शमो मन्निष्ठता बुद्धिर्दमैन्द्रियसंयमः तितिक्षा दुःखसम्मर्षो जिह्वोपस्थजयो धृतिः दण्डन्यासः परन्दानं कामत्यागस् तपस्मृतम् स्वभावविजयशौर्यं सत्यै च समदर्शनम् ऋतै च सूनृता वाणी कविभिः परिकीर्तिता कर्मस्वसङ्गमशौचन्त्यागसन्न्यासमुच्यते धर्मैष्टं धनन्द्रूणाय यज्ञोऽहं भगवत्तमः दक्षिणाज्ञानसन्देशः प्राणायामः परं बलम् भगोम ऐश्वरो भावो लाभो भक्तिरुत्तमः विद्यात्मनिभिदाबाधो जुगुप्सारीरकर्मसु श्रीर्गुणानैरपेक्ष्याद्या सुखं दुःखसुखात्ययः दुःखं कामसुखापेक्षा पंडितो बंधमोक्षवित् मूर्खो देहाद्यहं बुद्धिः पन्थामन् निगमस्मृतः उत्पथश्चित्तविक्षेपस्वर्गसत्त्वगुणोदयः नरकस्तम उन्नाहो बन्धुर्गुरुरहं सखी गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते दरिद्रो यस्त्वसन्तुष्टः कृपणो योजितेन्द्रियः गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः एत उद्धवते प्रश्ना सर्वे साधुनिरूपिताः क्यों वर्णिते बहुना लक्षणं गुणदोषयोः गुणदोषदृशिर्दोषो गुणस्तु भयवर्जितः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकोनविंशोऽध्यायः ॐ